श्री बटुक भैरव अष्टोत्तर शतनाम ओम ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट शमशानवासी मांसाशि खर्पराशि स्मरांतकृत रक्तपह पानपह सिद्धः सिद्धिदः सिद्धसेवितः कंकालः कालशमनः कलाकाष्ठातनुः कविः त्रिनेत्रो बहुनेत्रश्च तथा पिंगललोचनः शूलपाणिः खड्गपाणिः कंकाली धूम्रलोचनः अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः धनदो धनहारी च धन्वान् प्रीतिभावितः नागहारो नागपाशो व्योमकेशः कपालभृत् कालः कपालमाली च कमनीयः कलानिधिः त्रिलोचनो ज्वलन्नेत्र त्रिशिखी च त्रिलोकपाः त्रिनेत्रतनयोडिम्भः शान्तः शान्तजनप्रियः बटुको बहुवेशश्च खट्वांगवरधारकः भूताध्यक्षः पशुपतिः भिक्षुकः परिचारकः धूर्तो दिगंबरः शूरो हरिणः पाण्डुलोचनः प्रशान्तः शान्तिदः सिद्धः शंकरः प्रियबान्धवः अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः अष्टाधारः षडाधारः सर्पयुक्तः शिखी सखः भूधरो भूधराधीशो भूपतिः भूधरात्मजः कंकालधारी मुंडी च नागयज्ञोपवीतवान् जृम्भणो मोहनस्तम्भि मारणः शोभणस्तथा शुद्धनीलाञ्जनप्रख्यो दैत्यः मुण्डभूषितः बलिभुक् बलिभुन्नाथो बालो बालपराक्रमः सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः कामी कलानिधिः कान्तः कामिनी वशकृद्वशी सर्वसिद्धिप्रदो वैद्यो प्रभुः विष्णुरितीव हि अष्टोत्तरशतं नाम्नां भैरवस्य महात्मनः मया ते कथितं देवि रहस्यं सर्वकामदं य इदं पठति स्तोत्रं नामाष्टशुतमुतं मम न तस्य दुरितं किञ्चिन् च भूतभयं तथा न च मारीभयं तस्य गृहराजभयं तथा न शत्रुभ्यो भयं क्वापि प्राप्नुयान्मानवः क्वचित् पातकानां भयं नैव पठेति स्तोत्रं मनुत्तमम् मारी भये राजभये तथा चौराग्निजे भये उत्पत्तिके महाघोरे तथा दुःस्वप्नदर्शने बन्धने च तथा घोरे पठेति स्तोत्रमनन्यधीः सर्वे प्रश्मनं याति भयं भैरवकीर्तना एकादशसहस्रं तु पुरश्चरणं मुच्यते यस्त्रिधन्ध्यं पठेद्देवी संवत्सर्मतन्द्रिताः स सिद्धिं प्राप्नुयादिष्टां दुर्लभाम् अपि मानवः षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयां महीं राजशत्रुविनाशाय जपेन्मासाष्टकं पुनः रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् जपेन्मासत्रयं मर्त्यो राजानं वशमानयेत् धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः। जपेन्मासत्रयं देवि वारमेकं तथा निशि, धनं पुत्रं तथा दानं प्राप्नुयान्नात्र संशयः। रोगी रोगात् प्रमुच्येत, बद्धो मुच्येत बन्धनात्, भीतो भयात् प्रमुच्येत, देवी सत्यं न संशयः। निगडैश्चापि बद्धौ यः कारागारे निपातितः, श्रृङ्खला बन्धनं प्राप्तं पठेच्चैव दिवानिशम्। यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्, अप्रकाशं परं गुह्यं न देयं यस्य कस्यचित्। सुकुलीनाय शान्ताय ऋजवेदम्भवर्जिते, दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम्। इति श्रुत्वा तथो देवी नामाष्टशतमुत्तमं, जजाप परया भक्त्या सदा सर्वेश्वरेश्वरी। भैरवस्य तत्हृष्टो भूः सर्वलोकमहेश्वरः, वरं ददाति भक्तिभ्यो पठेत् स्तोत्रम् अनन्यधीः। संतोषं परमं प्राप्य भैरवस्य महात्मनः।